इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। भारत भूटान देशाभ्याम् काकराझार गेलेफु बनारहाट समेत सेत इत्येतयोः मध्ये द्वौ सीमांतरे रेल सम्पर्कौ स्थापयितुं सहमति अभिव्यक्ता। केन्द्रीय रेलमन्त्री अश्विनी वैष्णवः अवदत् यत् एषः 90 किलोमीटरमितं रेलमार्गः 33,400 कोटिरूप्यकव्ययेन निर्मीयते। विदेशसचिवः विक्रम मिश्री उक्तवान् यत् एषा भारत भूटानयोः प्रथमः रेल सम्पर्क परियोजना भविष्यति। रेलमार्गः भारत भूटानयोः सम्बन्धः असाधारण विश्वास परस्पर सम्मान सांस्कृतिका त्यादिषु प्रतिष्ठितः अस्ति। भारतीय जनता पार्टीति दलस्य अध्यक्षः जगत प्रकाश नड्डा अवदत् यत् तमिलनाडु राज्यस्य करूर मध्ये अभिनेतुः विजय थलपति इत्यस्य जनसभायाम् उत्कण्ठित जनभीति संचार कारणात् जातायाम् घटनायाम् नैकेषाम् जनानाम् मृत्युः जातः। तत्र कथं कृत्वा इयं घटना प्रवृत्ता तस्य कारणान्वेषणार्थं किञ्चित् दलीय प्रतिनिधिमण्डलं तत्र प्रेषितमस्ति। भाजपेति दलीय प्रतिनिधिमण्डलं प्रभावित प्रभावैः परिवारैः सह मेलिष्यति तथा च अध्यक्षाय समाख्यामपि प्रतिवेदयिष्यति। भाजपेति दलस्य सांसद पदासीना हेमा मालिनी एतस्य प्रतिनिधिमण्डलस्य संयोजिकारूपेण कार्यनिर्वहणं करिष्यति। अन्येषु च प्रतिनिधिषु सांसदः अनुराग ठाकुरः, तेजस्वी सूर्या, अपराजिता सारंगी, रेखा शर्मा, व्रिजलालः, शिवसेना सांसदः च श्रीकांत सिन्देवर्यः, टीडीपी सांसदः पुट्टामहेश कुमारः चापि सम्मिलितो भविष्यतः। नड्डावर्येण मृतकानां जनानां कृते संवेदना अभिव्यक्ता, व्रणितानाञ्च शीघ्रस्वास्थ्यार्थं कामनापि कृता। विदेशमन्त्री डॉ एस जयशंकरः न्यूयॉर्क नगरे कनाडादेशस्य विदेशमन्त्रिणा अनीता आनन्देन सह मिलितवान्। यत् द्वयोः देशयोः मध्ये सम्बन्धस्य पुनर्निर्माणे महत्वपूर्णं पदाक्षेपः वर्तते। श्रीजयशंकरः सद्य उच्चायुक्तानां नियुक्तेः निर्णयस्य स्वागतं कृतवान्। कनाडादेशे अपराध संहितायाः अन्तर्गतं विश्नोई दलम् आतंकी संघटनत्वेन सूचीबद्धम्। दलस्य आतंकी सूचीकरणस्य अर्थः अस्ति यत् कनाडादेशे समूहस्य स्वामित्वे यत्किमपि अस्ति यस्मिन् सम्पत्तयः, वाहनानि, धनानि च सन्ति तानि सर्वाणि ग्रहीतुं शक्यते। कनाडादेशस्य जनसुरक्षामन्त्री गैरी आनन्द सांगरी अवदत् यत् विश्नोई दलेन आतंकस्य हिंसायाः भयस्य च कृते विशिष्टाः समुदायाः लक्षिताः सन्ति इति। केन्द्रीय वाणिज्य उद्योग मन्त्री पीयूष गोयलः अवदत् यत् यूरोपीय मुक्त वाणिज्य संघीय देशैः तद्धि आइसलैंड, लिंकटेनस्टीन, नॉर्वे, स्विट्जरलैंड इत्याख्यैः सह मुक्त वाणिज्यीय सन्धिः अक्टूबर मासस्य प्रथम दिनांकात् प्रभावी भविष्यति। श्रीगोयलः ह्यः उक्तवान् यत् विकसित देशाः भारतेन सह वाणिज्यिक सन्धौ हस्ताक्षरार्थम् इच्छुकाः सन्ति। उपर्युक्तानि तथ्यानि मन्त्रिणा ह्यः ग्रेटर नोएडायां उत्तर प्रदेश अन्ताराष्ट्रिय वाणिज्य सम्मेलनस्य समापनावसरे प्रकटितानि। क्रिकेट क्रीडायाम् अद्य 25,000 महिलानाम् आईसीसी विश्वचषक स्पर्धा गुवाहाटी नगरस्य बरसापारा क्रिकेट क्रीडांगणे आतिथेय भारत श्रीलंका देशयोः मध्ये स्पर्धायाः आरम्भ भविष्यति। अद्य अपराह्णे 3 क्रीडायाः आरम्भ भविष्यति। भारतीय महिला क्रिकेट दलं स्वस्य प्रथमं आईसीसी उपाधिं प्राप्तुं 47 वर्षाणां प्रतीक्षां समापयितुं प्रयासं करिष्यति इति वार्ताः।